अध्यायः ऋषिरिवाच निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसंमितं अन्यमानं बलं चैव शुम्भः क्रुद्धो अब्रवीद्वचः बलावलेपदुष्टे त्वं मा दुर्गे गर्वमावह अन्यासां बलमाश्रित्य युध्यसे याति मानिने देव्युवाच एकैवाहं जगत्यत्र द्वितीया का मम परा पश्यैता दुष्टमयैव विशन्त्यो मद्विभूतयः ततः समस्तास्ता देव्यो ब्रह्माणि प्रमुखालयम् तस्या देव्यास्तनौ जिग्मुः एकैवासीत् तदाम्बिका देव्युवाच अहं विभूत्या बहुभिः इह रूपैर्यदा स्थिता तत्संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव ऋषिरुवाच ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः पश्यतां सर्वदेवानाम् असुराणां च दारुणम् शरवर्षैश्रितैः शस्त्रैः तथास्त्रैश्चैव दारुणैः तयोर्युद्धमभूद्भूय सर्वलोकभयङ्करम् दिव्यान्यस्त्राणि शतशो मुमुचेयान्यथाम्बिका बभञ्जतानि दैत्येन्द्राः तत्प्रतिघातकर्तृभिः मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरे बभञ्जलीलयैवोग्र हुङ्कारोच्चारणादिभिः ततः शरशतैर्देवीम् आच्छादयत सूसुरः सापि तत्कुपिता देवी धनुश्चिच्छेदचेषुभिः छिन्ने धनुषि दैत्येन्द्राः तथा शक्तिमथा ददे चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम् ततः खड्गमुपादाय शतचन्द्रं च भानुमात् अभ्यधावत्तदा देवीं दैत्यानामधिपेश्वरः तस्यापतत एवाशु खड्गं चिच्छेदचण्डिका धनुर्मुक्तैषितैर्बाणैः चर्म चार्ककरामलम् हताश्वः स तदा दैत्याः छिन्नधन्वा विसारथिः जग्राहमुद्गरं घोरम् अम्बिका निधनोद्यतः चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः तथापि सोऽभ्यधावत्ताम् मुष्टिमुद्यम्य वेगवान् समुष्टिम् पातयामास हृदये दैत्यपुङ्गवः देव्यास्तं चापि सा देवी तलेनोरस्य ताडयत् तलप्रहाराभिहतो निपपातमहीतले स दैत्यराजः सहसा पुनरेव तथोत्थितः उत्पत्य च प्रगृह्योच्चैः देवीं गगनमास्थितः तत्रापि सा निराधारा युयुधे तेन चिण्डिका नियुत्थं खे तदा दैत्या चण्डिका च परस्परम् चक्रतुः प्रथमं सिद्धा मुनिविस्मयकारकम् ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह उत्पात्य भ्रामयामासा चिक्षेपधरणीतले सक्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगतः अभ्यधावत दुष्टात्मा चण्डिका निधनेच्छया तमायान्तं ततो देवी सर्वदैत्यजनेश्वरम् जगत्यां पातयामास भित्त्वा शूलेन वक्षसि सगतासुः पपातोर्व्यां देवी शूलाग्रविक्षतः चालयन् सकलां पृथ्वीं साब्धिद्वीपां सपर्वताम् ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मनि जगत् स्वास्थ्यमतीवापा निर्मलं चाभवन्नभः उत्पातमेघासोल्का ये प्रागासंस्तेषमं ययुः सरितो मार्गवाहिन्या तथा संस्तत्र पातिते ततो देवगणाः सर्वे हर्षनिर्भरमानसाः बभूवुर्निहते तस्मिन् गन्धर्वाः ललितं जगुः अवादयंस्तथैवान्ये न ऋतुश्चाप्सरोगणाः वपुः पुण्यास्तथा वाताः सुप्रभो भूद्दिवाकरः जज्वलुश्चाग्नयः शान्ताः शान्तदिग्जनितस्वनाः इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये शुम्भवधो नाम दशमोऽध्यायः अथ एकादशोऽध्यायः ऋषिरुवाच देव्या हते तत्र महासुरेन्द्रे सेन्द्रासुरावन्निपुरोगमास्ताम् कात्यायनीं तुष्टुवृष्टलाभाः विकासिवक्त्राब्जविकासिताशाः देवि प्रपन्नार्ति हरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य प्रसीद विश्वेश्वरि पाहि विश्वम् त्वमीश्वरी देवि चराचरस्य आधारभूता जगतस्त्वमेका महीस्वरूपेण यतस्थितासि अपां स्वरूपस्थितया त्वयेतत् आप्यायते कृत्स्नमलङ्घ्यवीर्ये त्वं वैष्णवे शक्तिरनन्तवीर्या विश्वश्वबीजं परमासि माया सम्मोहितं देवि समस्तमेतत् त्वं वै प्रसन्ना भुवि मुक्तिहेतुः विद्या समस्ता तव देवि भेदाः स्त्रिया समस्ता सकला जगत्सु त्वयैकया पूरितमम्बयैत काते स्तुति स्तौय परापरोक्तिः सर्वभूताय यदा देवी भुक्तिमुक्तिप्रदायिनि त्वं स्तुता स्तुतयेका वा भवन्तु परमोक्तयः सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते स्वर्गापवर्गदे देवी नारायणि नमोऽस्तुते कलाकाष्ठादिरूपेण परिणामप्रदायिनि विश्वस्योपरतो शक्ते नारायणि नमोऽस्तुते सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि गुणाश्रये गुणमये नारायणि नमोऽस्तुते शरणागत दीनार्थ परित्राण परायणे सर्वस्यार्ति हरे देवि नारायणि नमोऽस्तुते हंसयुक्त विमानस्ते ब्रह्माणि रूपधारिणि कौशाम्भक्षरिके देवि नारायणि नमोऽस्तुते त्रिशूलचन्द्राहिधरे महावृषभवाहिनि माहेश्वरी स्वरूपेण नारायणि नमोऽस्तुते मयूरकुक्कुटौरुते महाशक्तिधरे अनघे कौमारी रूपसंस्थाने नारायणि नमोऽस्तुते मुखचक्रगदाशार्ग्न गृहीत परमायुधे प्रसीद वैष्णवे रूपे नारायणि नमोऽस्तुते गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृत वसुन्धरे वराहरूपिणि शिवे नारायणि नमोऽस्तुते नृसिंहरूपेणोऽग्रेण हन्तुं दैत्यान् कृतोद्यमे त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तुते किरीटिनि महावज्रे सहस्रनयनोज्ज्वले वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तुते शिवदूते स्वरूपेण हतदैत्यमहाबले घोररूपे महारावे नारायणि नमोऽस्तुते दंष्ट्राकरालवदने शिरोमालाविभूषणे चामुण्डे मुण्डमथने नारायणि नमोऽस्तुते लक्ष्मीलज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे महारात्रि महामाये నారాయణి నమోస్తుతే.
మిథే సరస్వతి వరే భూతి బాభ్రవితామసి, నియతే త్వం ప్రసీదేశే నారాయణి నమోస్తుతే. సర్వస్వరూపే సర్వేషే సర్వశక్తి సమన్వితే భయేభ్యస్త్రాహినో దేవి దుర్గే దేవి నమోస్తుతే. ఏతత్తే వదనం సౌమ్యం లోచనత్రయభూషితం, పాతు నః సర్వభూతేభ్యః కాత్యాయని నమోస్తుతే. జ్వాలాకరాళమత్యుగ్రం అశేషాసురసూదనం, త్రిశూలం పాతు నో భీతే భద్రకాళి నమోస్తుతే.
హినస్తి దైత్యతేజాంసి స్వనేనాపూర్యయా జగత్, సా ఘంటా పాతు నో దేవి పాపేభ్యో నః సుతానివ. అసురాసృగ్వసా పంక చర్చితస్తే కరోజ్వల, శుభాయ ఖడ్గో భవతు చండికే త్వాం నతావయం. రోగానశేషాన్ అపహంసి తుష్టా, రుష్టాతు కామాన్ సకలానభీష్టాన్. త్వామాశ్రితానాం న విపన్నరాణాం, త్వామాశ్రితా హ్యాశ్రయతాం ప్రయాంతి. ఏతత్కృతం యత్ కథనం త్వయాద్య ధర్మద్విషాం దేవి మహాసురాణాం, రూపైరనేకై బహుధాత్మమూర్తిం కృత్వాంబికా తత్ ప్రకరోతి కాన్యా. విద్యాసు శాస్త్రేషు వివేకదీపేషు ఆద్యేషు వాక్యేషు చకాత్వదన్య. మమత్వగర్తే అతిమహాంధకారే విభ్రామయత్యేతదతీవ విశ్వం, రక్షాంసి యత్రోగ్రవిషాశ్చ నాగా, యత్రారయోదస్యు బలాని యత్ర దవానలో యత్ర తథాబ్ధి మధ్యే తత్ర స్థితా త్వం పరిపాషి విశ్వం. విశ్వేశ్వరి త్వం పరిపాసి విశ్వం, విశ్వాత్మికాధారయశీతి విశ్వం. విశ్వేశవంద్యా భవతి భవంతి విశ్వాశ్రయాయే త్వయి భక్తి నమ్రాః. దేవి ప్రసీద పరిపాలయ నోరి భీతే, నిత్యం యథా సురవధాత్ అధునైవ సద్య పాపాని సర్వ జగతాం ప్రశమం నయాశు ఉత్పాత పాక జనితాంశ్చ మహోపసర్గాన్. ప్రణతానాం ప్రసీదత్వం దేవి విశ్వార్తిహారిణి, త్రైలోక్యవాసినామీడ్యే లోకానాం వరదా భవ. దేవ్యువాచ వరదాహం సురగణా, వరం యన్మనసేచ్ఛత తం వృణుధ్వం ప్రయచ్ఛామి జగతముపకారకం దేవాచు సర్వబాధాప్రశమనం త్రైలోక్యస్యాఖిలేశ్వరి ఏవమేవ త్వయా కార్యం అస్మద్వైరి వినాశనం దేవ్యువాచ వైవస్వతే అంతరే ప్రాప్తే అష్టావింశతిమే యుగే శుంభో నిశుంభశ్చైవ న్యావుత్పత్స్యేతే మహాసురౌ నందగోపగృహే జాతా యశోదా గర్భసంభవా తతస్తౌ నాశయిష్యామి వింధ్యాచల నివాసిని పునరప్యతిరౌద్రేణ రూపేణ పృథివీతలే అవతీర్యహనిష్యామి వైప్రచిత్తాంస్తు దానవాన్ భక్షయంత్యాశ్చ తానుగ్రాన్ వైప్రచిత్తాన్ మహాసురాన్ రక్తదంతా భవిష్యంతి దాడిమీ కుసుమోపమాః తతో మాం దేవతా స్వర్గే మర్త్యలోకే చ మానవాః స్తువంతో వ్యాహరిష్యంతి సతతం రక్తదంతికాం భూయశ్చ శతవార్షిక్యాం అనావృష్ట్యా మనంభసి మునిభిః సంస్తుతా భూమౌ సంభవిష్యామ్యయోనిజ తతః శతేన నేత్రాణాం నిరీక్షిష్యామి యన్మునీన్ కీర్తయిష్యంతి మనుజా శతాక్షీమితి మాం తతః తతోహమఖిలం లోకం ఆత్మదేహ సముద్భవైః భరిష్యామి సురాశాకైః ఆవృష్టేః ప్రాణధారకైః శాకంభరీతి విఖ్యాతిం తదా యాస్యామ్యహం భువి తత్రైవ చ వధిష్యామి దుర్గమాఖ్యం మహాసురం దుర్గాదేవీతి విఖ్యాతం తన్మే నామ భవిష్యతి పునశ్చాహం యదా భీమం రూపం కృత్వా హిమాచలే రక్షాంసి క్షయయిష్యామి మునీనాం త్రాణకారణాత్ తదా మాం మునయః సర్వే స్తోష్యంత్యానమ్రమూర్తయః భీమాదేవీతి విఖ్యాతం తన్మే నామ భవిష్యతి యదారుణాఖ్యస్త్రైలోక్యే మహాబాధాం కరిష్యతి తదాహం భ్రామరం రూపం కృత్వా సంఖ్యేయ షట్పదం త్రైలోక్యస్య హితార్థాయ వధిష్యామి మహాసురం భ్రామరీతి చ మాం లోకాః తదా స్తోష్యంతి సర్వతః ఇత్థం యదా యదా బాధా దానవోత్థా భవిష్యతి తదా తదా అవతీర్యాహం కరిష్యామ్యరి సంక్షయం ఇతి శ్రీ మార్కండేయ పురాణే సావర్ణికే మన్వంతరే దేవీ మహాత్మ్యే నారాయణీ స్తుతిర్నామ ఏకాదశోఅధ్యాయః
అథ ద్వాదశోఅధ్యాయః దేవ్యువాచ ఏభిః స్తవైశ్చ మాం నిత్యం స్తోష్యతి యః సమాహితః తస్యాహం సకలాం బాధాం
नाशयिष्याम्य संशयम् मधुकैटभनाशं च महिषासुरघातनम् कीर्तयिष्यन्ति ये तद्वत् वधं शुम्भनिशुम्भयोः अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् न तेषां दुष्कृतं किञ्चित् दुष्कृतोत्था न चापदः भविष्यति न दारिद्र्यं न चैवेष्टवियोजनम् शत्रुतो न भयं तस्य दस्युतो वा न राजतः न शस्त्रानलतो यौघात् कदाचित् सम्भविष्यति तस्मान् ममैतन्माहात्म्यं पठितव्यं समाहितैः श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं हितात् उपसर्गानशेषांस्तु महामारी समुद्भवान् तथा त्रिविधमुत्पातम् माहात्म्यं शमयेन्मम यत्रैतत् पठ्यते सम्यक् नित्यमायतने मम सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मे स्थितम् बलिप्रदाने पूजायाम् अग्निकार्ये महोत्सवे सर्वं ममैतच्चरितम् उच्चार्यं श्राव्यमेव च जानता जानता वापि बलिपूजां तथा कृताम् प्रतीक्षिष्याम्यहं प्रीत्या वह्निहोमं तथा कृतम् शरत्काले महापूजा क्रियते या च वार्षिकी तस्या ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः सर्वबाधा विनिर्मुक्तो धनधान्यसुतान्वितः मनुष्यो मत्प्रसादेन भविष्यति न संशयः श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः पराक्रमं च युद्धेषु जायते निर्भयः पुमान् रिपवः संशयं यान्ति कल्याणं चोपपद्यते नन्दते च कुलं पुंसां माहात्म्यं मम शृण्वताम् शान्तिकर्मणि सर्वत्र तथा दुःस्वप्नदर्शने ग्रहपीडासु चोग्रासु माहात्म्यं शृणुयान्मम उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते बालग्रहाभिभूतानां बालानां शान्तिकारकम् सङ्घातभेदे च नृणां मैत्रीकरणमुत्तमम् दुर्वृत्तानामशेषाणां बलहानिकरं परम् रक्षोभूतपिशाचानां पठनादेवनाशनम् सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम् पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः विप्राणां भोजनैर्होमैः प्रोक्षणीयैरहर्निशम् अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेणया प्रीतिर्मे क्रियते सास्मिन् सकृत् सुचरिते श्रुते श्रुतं हरति पापानि तथारोग्यं प्रयच्छति रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् तस्मिन् श्रुते वैरिकृतं भयं पुंसां न जायते युष्माभिः स्तुतयो याश्च ब्रह्मर्षिभिः कृताः ब्रह्मणा च कृतास्तास्तु प्रयच्छन्ति शुभां मतिम् अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः दस्युभिर्वावृतः शून्ये गृहीतो वापि शत्रुभिः सिंहव्याघ्रानुमातो वा वने वा वनहस्तिभिः राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा आघूर्णितो वा तेन स्थितः पोते महार्णवे पतत्सु चापि शस्त्रेषु सङ्ग्रामे भृशदारुणे सर्वा बाधासु घोरासु वेदनाभ्यर्दितोऽपि वा स्मरन् ममैतच्चरितं नरो मुच्येत सङ्कटात् मम प्रभावात् सिंहाद्याः दस्यवो वैरिणस्तथा दूरादेव पलायन्ते स्मरतश्चरितं मम ऋषिरुवाच इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा पश्यतामेव देवानां तत्रैवान्तरधीयत तेऽपि देवा निरातङ्काः स्वाधिकारान्यथा पुरा यज्ञभागभुजः सर्वे चक्रुर्विनीतारयः दैत्याश्च देव्या निहते शुम्भे देवरिपौ युधि जगद्विध्वंसिनि तस्मिन् महोग्रे अतुलविक्रमे निशुम्भे च महावीर्ये शेषाः पातालमाययो एवं भगवती देवी सा नित्यापि पुनः पुनः सम्भूय कुरुते भूपा जगतः परिपालनम् तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते सायाचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वरा महाकाल्या महाकाले महामारीस्वरूपया सैव काले महामारी सैव सृष्टिर्भवत्यजा स्थितिं करोति भूतानां सैव काले सनातने भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे सैवाभावे तथा लक्ष्मी विनाशायोपजायते स्तुता संपूजिता पुष्पैः धूपगन्धादिभिस्तथा ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभाम् इति श्री मार्कण्डेय पुराणे सावर्णिके मन्वन्तरे देवी महात्म्ये फलश्रुतिर्नाम द्वादशो अध्यायः। अथ त्रयोदशो अध्यायः। ऋषिरिवाच एतत्ते कथितं भूपा देवी माहात्म्यमुत्तमम् एवं प्रभावासा देवी ययेदं धार्यते जगत् विद्या तथैव क्रियते भगवद्विष्णुमायया तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे तामुपैहि महाराज शरणं परमेश्वरीं आराधिता सैव नृणां भोगस्वर्गापवर्गदा। मार्कण्डेय उवाच इति तस्य वचः श्रुत्वा सुरथः स नराधिपः प्रणिपत्य महाभागं तं ऋषिं संश्रितव्रतम् निर्विण्णोति ममत्वेन राज्यापहरणेन च जगामसद्यस्तपसे स च वैश्यो महामुने सन्दर्शनार्थमम्बायाः नदीपुलिनसंस्थितः स च वैश्यस्तपस्तेऽपि देवी सूक्तं परं जपन् तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम् अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः निराहारौ यताहारौ तन्मनस्कौ समाहितौ ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम् एवं समाराधयतो स्त्रिभिर्वर्षैर्यतात्मनोः परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका। देव्युवाच यत्प्रार्थ्यते त्वया भूपा त्वया च कुलनन्दना मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामि तत्। मार्कण्डेय उवाच ततो वौरे नृपो राज्यम् अविभ्रंश्यन्यजन्मनि अत्र चैव निजं राज्यं हतशत्रुबलं बलात् सोऽपि वैश्यस्ततो ज्ञानं वौरे निर्विण्णमानसः ममेत्यहमिते प्राज्ञा सङ्गविच्युतिकारकम्। देव्युवाच स्वल्पैरहोभिर्नृपते स्वराज्यं प्राप्स्यते भवान् हत्वा रिपूनस्खलितं तव तत्र भविष्यति मृतश्च भूयः सम्प्राप्य जन्मदेवाद्विवस्वतः सावर्णिको नाम मनो भवान् भुवि भविष्यति वैश्यवर्य त्वयायश्च वरोऽस्मत्तोऽभिवाञ्छितः तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति मार्कण्डेय उवाच इति दत्त्वा तयोर्देवी यथाभिलषितं वरम् बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः सूर्याज्जन्म समासाद्या सावर्निर्भविता मनुः सावर्निर्भविता मनुः क्लीं ॐ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः ॐ श्रीसप्तशतीदेवीमाहात्म्यं समाप्तम् ॐ हरिः ॐ तत्सत् अपराधक्षमापणस्तोत्रम् ॐ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु अज्ञानाद्विस्मृते भ्रान्त्या यन्न्यूनमधिकं कृतं तत्सर्वं क्षम्यतां देवी प्रसीद परमेश्वरि कामेश्वरि जगन्माता सच्चिदानन्दविग्रहे गृहाणार्च्यामि मां प्रीत्या प्रसीद परमेश्वरि सर्वरूपमयी देवी सर्वं देवीमयं जगत् अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीं यदक्षरं परिभ्रष्टं मात्राहीनं च यद्भवेत् पूर्णं भवतु तत्सर्वं त्वत्प्रसादान्महेश्वरि यदत्र पाठे जगदम्बिके मया विसर्गबिन्द्वक्षरहीनमीरितम् तदस्तु सम्पूर्णतमं प्रसादता सङ्कल्पसिद्धिश्च सदैव जायता यन्मात्रा बिन्दुबिन्दुद्वितया पदपदद्वन्द्ववर्णादिहीनम् भक्त्या भक्त्यानुपूर्वम् प्रसभकृतिवशाद्व्यक्तमव्यक्तमम्बा मोहादज्ञानतो वा पठितम् अपठितं साम्प्रतं तेस्तवेऽस्मिन् तत्सर्वं साङ्गमासां भगवती वरदे त्वत्प्रसादात् प्रसीद प्रसीद भगवत्यम्बा प्रसीद भक्तवत्सले प्रसादं कुरु मे देवी दुर्गे देवि नमोऽस्तुते ओमिति अपराधक्षमापणस्तोत्रं समाप्तम् अथ देवी सूक्तम् ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुतविश्वदेवैः अहं मित्रावरुणो भाभिभर्म्यहमिन्द्राग्ने अहमश्विनो भा अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुतपूषणं भगम् अहम् दधामि द्रविणम् हविष्मते सुप्राव्ये यजमानाय सुन्वते अहम् राष्ट्री सङ्गमनी वसूनाम् चिकितुषी प्रथमा यज्ञीयानाम् ताम् मा देवा व्यधतु पुरुत्रा भूरिस्तात्राम् भूर्यावेशयम् तीम् मया सो अन्नमत्तियो विपश्यति यः प्राणिति य ईम् शृणोत्युक्तम् अमन्तवो माम् तवुपक्षयन्ति श्रुधि श्रुतश्रद्धिवम् ते वदामि अहमेव स्वयमिदम् वदामि जुष्टम् देवेभिरुतमानुषेभिः यम् कामयेतम् तमुग्रम् कृणोमि तम् ब्रह्माणम् तम् ऋषिम् तम् सुमेधाम् अहम् रुद्राय धनुरातनोमि ब्रह्मद्विशेषरवेहम् तवावु अहम् जनाय समदम् कृणोम्यहम् द्यावा पृथिवी आविवेश अहम् सुवेपितरमस्य मूर्धन् मम योनिरप्स्वम् तः समुद्रे ततो वितिष्ठे भुवनानुविश्वो तामों द्याम् वर्ष्मणोपस्पृशामि अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्वा परो दिवा पर एना पृथिव्यै तावति महिना सम्बभूव ॐ शान्ति शान्ति शान्तिः इति देवी सूक्तम्।